अमीपृथुस्तम्बभृतः पिशङ्गताम् गता विपाकेन फलस्य शालयः विकासिव प्रम्भसि गन्धसूचितम् नमन्ति निघ्रातुमिवासितोत्पलम्। अमी इति अमी पृथून् स्तम्बान् गुच्छान् बिभ्रतीति पृथुस्तम्बभृतः स्तम्बो गुच्छस्तृणादिनः इत्यमरः फलस्य प्रसवस्य विपाकेन परिणामेन पिशङ्गताम् गताः शालयः व्रीहिविशेषाः वप्राम्भसि केदारोदके पुंनपुंसकयोर्वप्रः केदारः क्षेत्रम् इत्यमरः विकसतीति विकासि विकसितम् गन्धेन सूचितम् ज्ञापितम् असितोत्पलम् निघ्रातुम् आघ्रातुम् इव नमन्ति निध्यातुमिव इति पाठे द्रष्टुमित्यर्थः निर्वर्णयितुम् वा निर्वर्णनन्तु निध्यानम् दर्शनालोकनेक्षणम् इत्यमरः अत्र फलभारात् नमनस्य निघ्राणफलकत्वम् उत्प्रेक्ष्यते इति फलोत्प्रेक्षा। मृणालिनीनामनुरञ्जितम् त्विषा विभिन्नमम्भोजपलाशशोभया पयःस्फुरच्छालिशिखापि सङ्गितम् द्रुतम् धनुष्खण्डमिवाहि विद्विषः। मृणालिनीनामिति मृणालिनीनाम् पद्मिनीनाम् त्विषा हरिद्वर्णेन अनुरञ्जितम् तद्वर्णताम् आपादितमित्यर्थः तथा अम्भोजपलाशशोभया पद्मदलकान्त्या आरुण्येन इत्यर्थः विभिन्नम् मिश्रितम् तथा स्फुरच्छालिशिखापि सङ्गितम् स्फुरद्भिः कलमाग्रैः पिङ्गलीकृतम् इत्थम् नानावर्णत्वात् द्रुतम् पलायितम् अहिविद्विषः वृत्रशत्रोः इन्द्रस्य सर्पे वृत्रासुरेऽप्यहिः इति वैजयन्ती। धनुष्खण्डमिव स्थितम् नित्यम् समासेनुत्तरपदस्थस्य इति विसर्जनीयस्य षत्वम् पयः वप्राम्भः अपदिश्य व्याजीकृत्य धावताम् इत्यागामिना सम्बन्धः। अत्र धनुष्खण्डस्य द्रुतस्य लोके अप्रसिद्धत्वात् उत्प्रेक्षा इयम् न उपमा। विपाण्डुसंव्यानमिवानिलोद्धतम् निरुन्धति सप्तपलाशजम् रजः अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः। विपाण्ड्विति विपाण्डु शुभ्रम् अनिलोद्धतम् अनिलोक्षिप्तम् सप्त सप्त पलाशानि पत्राणि पर्वसु येषाम् ते वृक्षाः सप्तपलाशाः। क्वचित् सङ्ख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वम् सप्तपर्णादिवदित्युक्तम् तेषाम् पुष्पाणि सप्तपलाशानि विहीनम् प्रसवे सर्वम् इत्यमरः। फले लुक् इत्यणो लुक् तेषु जातम् सप्तपलाशजम् रजः परागम् संव्यानम् उत्तरीयमिव संव्यानमुत्तरीयम् च इत्यमरः। निरुन्धतीः निवारयन्तीः प्रावृतवतीरिति यावत् अनाविलानि अकलुषाणि उन्मीलितानि च बाणानि नीलसैरेयकाणि चक्षूंषीव यासान्ताः तथोक्ताः। नीलस्वर्थगलोदासी बाण ओदनपाख्यपि इति धन्वन्तरिः। पुष्पाणि हासाः इव तैः सह वर्तन्ते इति सपुष्पहासाः। वनराजयः योषितः इव वनराजियोषितः ताः अपदिश्य इत्यन्वयः अत्र संज्ञानमिवेति उपमैव अन्यत्र उपमितसमासे लिङ्गम् यथा काचित् केनचित् कामुकेन आक्षिप्तं स्तनांशुकं निरुन्धे तद्वदिति भावः अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेद तिरोहितातपम् ततान्तरं सान्तरवारिषीकरैः शिवं नभो वर्त्म सरोजवायुभिः अदीपितमिति वैद्युतजातवेदसा वैद्युताग्निना अदीपितम् अप्रकाशितम् विद्युत्प्रकाशस्य दृष्टिविघातकत्वात् तद्राहित्यं गुणः इति भावः सिताम्बुदानां छेदैः खण्डैः तिरोहितातपम् न दृष्टिबाधः नाप्यातपबाधः इति भावः सान्तरवारिषीकरैः विरलाम्बुकणैः ततान्तरं व्याप्तमध्यं सरोजवायुभिः शिवं रम्यं नभोवर्त्म च अपदिश्य इति स्वभावोक्तिरलङ्कारः सितच्छदानामपदिश्य धावताम् ऋतैरमीषाम् ग्रथिताः पतत्रिणाम् प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः सितेति अपदिश्य धावतामिति पूर्वश्लोकत्रयोक्तम् पयः प्रभृतिकम् उद्दिश्य धावताम् अमीषाम् सितच्छदानाम् पतत्रिणाम् हंसानाम् हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः इत्यमरः ऋतैः शब्दैः ग्रथिताः दृग्धाः ग्रथितं गुम्फितं दृग्धम् इत्यमरः वारिदरोधनिर्गताः मेघोपरोधनिर्मुक्ताः अत एव अमलाः प्रसन्नाः दिशः परस्परालापं प्रकुर्वते इव दिष्ट्या मेघोपरोधनिर्मुक्ताः चिरादुच्छ्वसिताः इति हंसकूजितव्याजेन परस्परमालपन्तीवेति उत्प्रेक्षा विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः असक्तमूधांसि पयः क्षरन्त्यमूः उपायनानीव नयन्ति धेनवः विहारेति विहारभूमेः अपररात्रगोचरादित्यर्थः आगच्छन्त्यः इति शेषः अभिघोषम् उत्सुकाः व्रजं प्रत्युत्कण्ठिताः वत्सप्रेम्णा इति भावः घोष आभीरपल्ली स्यात् इत्यमरः च्युता त्रुटिता यूथानां कुलानां पङ्क्तिः श्रेणीबन्धः यासान्ताः तथोक्ताः सजातीयैः कुलं यूथम् इत्यमरः अमूः धेनवः असक्तम् अप्रतिबन्धम् पयः क्षीरं शरन्ति स्रवन्ति वत्सस्मरणात् प्रश्नवन्तीत्यर्थः क्षरतेः शत्रुप्रत्ययः ऊधांसि शरीरजेभ्यः अपत्येभ्यः उपायनानीव अतितोषकारीणीवेति उत्प्रेक्षा नयन्ति प्रापयन्ति यथा लोके कुतश्चित् प्रवासात् एत्य मातरः किञ्चित् खाद्यमानयन्ति तद्वदिति भावः जगत् प्रसूतिर्जगदेकपावनी व्रजोपकंठं तनयैरुपेयुषी द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः। जगदिति जगत्प्रसूतिः जगत्कारणम् आज्यादि हविर्द्वारेणेति भावः। जगतां एकपावनी मुख्यशोधनी व्रजोपकंठं गोष्ठांतिकं दूरांतिकार्थेभ्यो द्वितीया च इति द्वितीया उपकंठांतिकाभ्यर्नाभ्यग्राह इत्यमरः। तनयैः वत्सैः उपेयुषी संगता उपेयिवा ननश्वा ननूचानश्च इति क्वसुप्रत्यान्तो निपातः। उगितश्च इति ङीप् असौ गवां समितिः संहतिः मन्त्रैः ऋग्यजुषादिभिः मन्त्रो ऋगादिगुह्योक्तिः इति वैजयन्ती। संहिता योजिता आहुतिरिव समग्रां द्युतिम् उपैति आहुतिरपि जगत्प्रसूतिः जगदेकपावनी च। अग्नौ प्रास्ताहुतिः सम्यगादित्य उपतिष्ठते आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः इति स्मरणादिति भावः। कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिस्वने इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम्। कृतेति जितबर्हिणध्वनौ केकानुकारिणि इत्यर्थः। एतेन षड्जस्वरप्रायं गायन्तीति गम्यते। यथाह मातङ्गः षड्जं मयूरो वदति इति गाः पान्तीति गोपाः तेषां भार्याः गोप्यः। आतोनुपसर्गे कः इति कप्रत्ययः। पुंयोगादाख्यायाम् इति ङीष् ता एव जनः सुरक्तः मधुरकण्ठः यः गोपीजनः वल्लवीजनः तस्य गीतनिस्वने गाने कृतावधानम् एकाग्रचित्तम् इदं पुरोवर्ति मृगीकदम्बकं कर्तृ भूयसीं अतिमहतीं जिघत्साम् अत्तुमिच्छाम्। अदेः सन्नन्तात् उप्रत्ययः लुङ्सनोर्घस्लृ इति घस्लादेशः। अपहाय हित्वा सस्यं नाभ्येति नोपैति गीतासक्त्या क्षुधामपि न गणयतीत्यर्थः। असावनास्था परयावधीरितः सरोरुहिण्या शिरसा नमन्नपि उपैति शुष्यन्कलमः सहम्भसा मनोभुवा तप्त इवाभिपाण्डुताम्। असाविति शिरसा अग्र्येण मूर्ध्ना च नमन् प्रणमन्नपि अनास्थापरया अनादरपरया सरोरुहिण्या अवधीरितः अवज्ञातः। अम्भसा सह शरभूतेनेति भावः। शुष्यन् असौ कलमः शालिविशेषः मनोभुवा तप्त इव कामार्त इव अभिपाण्डुताम् उपैति। अत्र अनास्थापरया इति प्रकृतसरोरुहिणीविशेषणसामर्थ्यात् अप्रस्तुतनायिकाप्रतीतेः समासोक्तिः। उत्तिष्ठमानायाः सरोरुहिण्याः प्रतीयमानया नायिकया शुद्धभेदेऽपि अभेदलक्षणातिशयोक्तिमहिम्ना अवधीरणक्रियासम्बन्धात् निर्वहन्ति मनोभुवा तत्त इवेति उत्प्रेक्षानिर्वाहिका इति अतिशयोक्त्यनुप्राणित समासोक्त्युपमयोः अङ्गाङ्गिभावेन सङ्करः अमीसमुद्धूतसरोजरेणुना हृताहृतासारकणेन वायुना उपागमे दुश्चरिता इवापदाम् गतिम् न निश्चेतुमलम् शिलीमुखाः अमी इति समुद्धूतसरोजरेणुना इति सौरभ्योक्तिः हृतासारकणेन उपात्ताम्बुकणेनेति शैत्योक्तिः धारासम्पात आसारः इत्यमरः वायुना हृताः आकृष्टाः अमी शिलीमुखाः भृङ्गाः आपदाम् उपागमे राजादिभयागमे दुश्चरिताः दुष्टकर्माणः चौरादयः इव गम्यते इति गतिम् गन्तव्यदेशम् देशोपायगमे गतिः इति वैजयन्ती निश्चेतुम् नालम् न समर्थाः एकत्र वायोः सार्वत्रिकत्वेन उपादानात् अनिश्चयात् अन्यत्र भयान्धत्वादिति भावः मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रति शुकावलिर्व्यक्तशिरीषकोमला धनुश्रियम् गोत्रभिदोऽनुगच्छति मुखैरिति विद्रुमभङ्गलोहितैः मुखैः पिशङ्गीः पिशङ्गवर्णाः कलमस्य शिखाः शाल्यग्राणि बिभ्रती व्यक्तशिरीषकोमला विकसितशिरीषसवर्णा असौ शुकावलिः गोत्रभिदः इन्द्रस्य धनुषः श्रियम् अनुगच्छति अनुकरोति नानावर्णत्वात् इन्द्रधनुरिव आभातीति उपमालङ्कारः इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः विगलितजलभारशुक्लभासाम् निचय इवाम्बुमुचाम् नगाधिराजः इतीति अथ तत्र तस्मिन् पूर्वोक्ते यक्षे इति इत्थम् कथयति सति नातिदूरात् अनतिदूरात् ईषद्दूरे इत्यर्थः नयर्थस्य न शब्दस्य सुप्सुपेति समासः पिहितोष्णरश्मिबिम्बः तिरोहितार्कमण्डलः इति औन्नत्योक्तिः नगाधिराजः हिमाद्रिः विगलितः जलभारः येषान्ते तथोक्ताः अत एव शुक्लभासः द्वयोः अन्यतरस्य विशेष्यत्वविवक्षया विशेषणसमासः तेषाम् विगलितजलभारशुक्लभासाम् शुभ्राणाम् अम्बुमुचाम् निचयः इव मेघवृन्दमिव ददृशे दृष्टः तमतनुवनराजिष्यामितोपत्यकान्तम् नगमुपरि हिमानी गौरमासाद्य जिष्णुः व्यपगतमदरागस्यानुसस्मारलक्ष्मीम् असितमधरवासो बिभ्रतः सीरपाणेः तमिति जिष्णुः अर्जुनः अतनुभिः महतीभिः वनराजिभिः श्यामिताः श्यामलाः उपत्यकान्ताः आसन्नभूमिप्रदेशाः यस्य तम् तथोक्तम् उपत्य इत्यकाद्रेरासन्ना भूमिः ऊर्ध्वमधित्यका इत्यमरः उपाधिभ्याम् त्यकन् आसन्नारूढयोः इति त्यकन् प्रत्ययः उपरि हिमानीभिः हिमसङ्घातैः गौरम् शुभ्रम् नगम् हिमाद्रिम् आसाद्य व्यपगतः निवृत्तः मदरागः यस्य तस्य असितम् नीलम् अधरम् वासः उत्तरीयम् बिभ्रतः धृतवतः सीरम् हलम् पाणौ यस्य तस्य सीरपाणेः हलायुधस्य हलायुधः नीलाम्बरो रौहिणेयस्तालाङ्को मुसलीहली सङ्कर्षणः सीरपाणिः इत्यमरः सप्तमी विशेषणे इति ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ स्तः इति सप्तम्याः परनिपातः लक्ष्मीम् शोभाम् अनुसस्मार स्मृतवान् अत्र सदृशदर्शनेन सदृशान्तरस्य स्मरणात् स्मरणालङ्कारः सदृशम् सदृशानुभवाद्यत्र स्मर्येत तत्स्मरणम् इति विद्याधरः इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायाम् किरातार्जुनीयकाव्यव्याख्यायाम् घण्टापथसमाख्यायाम् चतुर्थः सर्गः समाप्तः।